अथ दशमः पाठः। रुधिरप्लुता रुदती च शूर्पणखा रावणनामानं भ्रातरमसुराणां राजानमागता। स छिन्ननासाकरणां स्वसारं दृष्ट्वा महान्तं क्रोधं गतः। तेन वीर्यवति रामे मारीचं नाम राक्षसं मृगरूपिणम् अन्विच्छति अजनादाश्रमात् सीताहृता। पुनरागत्य सीतां न पश्यन् स श्रीमान् राघवो महाविषादमभूत्।